पार्थस्य जन्मदिनम्।
माधुरी, तुम किमर्थं न खादसि? लज्जां करोषि?
अहं तु खादामि।
कुत्र खादसि? सर्वं तु अस्ति।
माधुरी, अद्य उत्तमं भोजनम् अस्ति। उदरपूरं खाद, लज्जां मा कुरु।
इत्थं न वद, सा इच्छानुसारेण खादतु, अजीर्णं भविष्यति। पार्थ, अद्य तव जन्मदिने सर्वं निरामिषम्?
नहि पुत्र, आमिषम् अपि अस्ति। पुत्री, आमिषम् आनय।
पश्य वन्दिते, सः कथं खादति?
अद्य विशेषभोजनम् अस्ति, अतः भीमवत् खादामि। पश्य, तत्र पूर्णिमा अपि मद्वत् खादति।
अद्य पयोहिमं नास्ति?
अस्ति, अन्यत् किम् इच्छसि? शीतलपानकम्?
आम्, आनय, अहम् आकण्ठं पास्यामि।
प्रथमं पायसं खाद, तत्परं रसगोलं खाद, तदनु पयोहिमं खाद, अन्ते शीतलपानकं पास्यसि।
मातः, भोजनं सुस्वादु अस्ति।
खादत, सानन्दं खादत, यथेच्छं खादत।
धन्यवादाः,